मे सदा पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं वन्दे संस्कृतमातरं। हरि ओं नमस्ते सर्वेषां स्वागतम्। सर्वैः श्रूयते खलु?
श्रूयते भगिनि।
अस्तु पठामः। एतावत् पर्यन्तं किम् अधीतवन्तः इति सकृत् पुनरावलोकनं कुर्मः, पुनस्मारणं कुर्मः। हनुमान् अशोकवनिकां प्राप्तवान्, तत्र किं प्रचलति? एतावत् पर्यन्तम् आञ्जनेयस्य सीतादेव्या सह मेलनं न जातं, सः पश्यन्नेव अस्ति आञ्जनेयः। कुत्र सिंक्षपावृक्षस्य पत्रेषु सञ्छन्नः आच्छन्नः, तत्र सः स्थित्वा पश्यति रावणस्य प्रवेशः। इतोपि प्रातः उषःकालः अपि न सञ्जातः, किन्तु रावणः प्रविष्टः। अनन्तरं सीतायाः तस्य अवधीरणा फणिः इति पदमासीत्। सीतादेव्याः तिरस्कारवचनं श्रुत्वा रावणः अतीव कुपितः, सः राक्षसीः आज्ञाप्य गतवान्। किम् आज्ञाप्य? भवत्याः एतां केनापि अन्यतमेन उपायेन, सामदान भेदः दण्डः इति अन्यतमेन उपायेन एताम् अनुकूलम्, एतस्याः मनसि अनुकूल्यम् उत्पादयन्तु, एतस्याः मनसि अनुकूल आचरणं किम् इति एतां बोधयन्तु इति उक्त्वा राक्षसीः आज्ञाप्य, अनन्तरमपि यदि एषा केनापि उपायेन अनुनीता न भवति तर्हि किं करणीयं, प्रातरशनाय श्वः पाकशालां नयन्तु इति आदिश्य सः गतः, प्रस्थितः, स्वभवनं गतवान्। निशान्ते निशान्तं प्रविष्टः इति पदमासीत्। निशान्ते इत्युक्ते रात्रेः अन्ते, निशान्तम् इत्युक्ते भवनं, तत्र प्रविष्टवान्। अनन्तरं किं जातं? ताः राक्षस्यः एताम् तर्जयन्ति। तदा सीतादेवी चिन्तयति, नूनं निश्चयेन विदितवृत्तान्ते जटायुषि गतायुषि माम् इह स्थाम् आर्यपुत्रः किं नाधिगतवान् प्रभुः। किं जटायुः मृतः, तेन कारणेन एव कदाचित् अहमत्र अस्मि इति वार्तां श्रावयितुं वार्तां न प्राप्तवान् श्रीरामः, अतः एव माम् अत्र न अन्विष्टवान् अस्ति इति सीतादेव्याः शङ्का। तत्र वयं तावत्पर्यन्तं दृष्टवन्तः। अद्य अनुवर्तयाम लघु गद्यभागः, लघुवाक्यमस्ति, अहं पठामः, अपि पठन्तु। आहोस्वित् क्रव्यादमायया,
आहोस्वित् क्रव्यादमायया,
विपर्यस्तप्रकृतेः काकुत्स्थस्य,
प्रकृतेः काकुत्स्थस्य,
किमु अनास्था सञ्जायते,
अनास्तस्था सञ्जायते।
सीतादेव्याः विचारः, चिन्तयति सा, किं चिन्तयति? आहोस्वित् इत्युक्ते तस्याः मनसि बहुविधभावाः इदानीं सन्ति, भीतिः, आशंका, भविष्यतः विषये आशंका, वर्तमानस्य विषये शोकः, गतकालस्य विषये दुःखम्, एवं सर्वम् अभवत् इति. आहो स्वित् कदाचित् इति अत्र भावः. आहो इति किं स्वित् इति प्रयोगः अस्माभिः दृष्टपूर्वः. तादृशम् आहो स्वित्, अहो एवम् अभवत् किल इति आहो स्वित्. आश्चर्यमिश्रितम् अथवा दुःखखेदमिश्रितं किमपि स्वचिन्तनम्. कदाचित् किम् अभवत्? कथञ्चित् क्रव्यादमायया. क्रव्यादमाया, क्रव्यादः कः? रावणः, राक्षसः. क्रव्यान् अत्ति, क्रव्यः इत्युक्ते मांसम्. यत् राक्षसाः अपि मांसभक्षिणः, नराः अपि मांसं भक्षयन्ति, तथा न, किन्तु क्रव्यः इत्युक्ते अपक्व मांसम्. राक्षसाः एव किल तादृशम् अश्नन्ति, पिशिताशनाः इति अपि तेषाम् एक पदं, पर्यायपदं. तादृशं क्रव्याद राक्षसस्य मायया, राक्षसेन निर्मित मायया, विपर्यस्तप्रकृतेः काकुत्स्थस्य. कदाचित् एतस्य मायायाः प्रभावेण श्रीरामस्य, काकुत्स्थः कः? ककुत्स्थवंशस्य, काकुत्स्थस्य रामस्य प्रकृतिः, स्वभावः विपरीतः सञ्जातः, परावृत्तस्वभावयुक्तः अभवत्. यः स्वभावः तस्य सहजस्वभावः अस्ति, तद् इदानीं न, विपर्यस्तः अभवत्. कदाचित् एतस्य मायायाः प्रकोपः एव प्रभावः एव स्यात् इति सीतादेवी आशङ्कते. अतः विपर्यस्तप्रकृतेः काकुत्स्थस्य किमु अनास्था सञ्जायते? किम् अत्र मम विषये तस्याः आदरभावः शिथिलः जातः? किम् अनास्था? मत्पत्नी, मम भार्या, एषा रक्षणीया, एषः मम धर्मः, सा दीना स्यात् इत्यादि चिन्तनमेव तस्य मनसि नास्ति वा? तादृशं किमपि, कामपि मायाम् एषः उत्पादितवान् वा इति सीतादेव्याः मनसि शङ्का. पूर्वमपि मायया खलु, मायया एव किल, मारीचः अपि सुवर्ण मृगस्य रूपं धृत्वा धावितः, अतः सा जानाति एते मायां उद्भावयितुं समर्थाः इति, अतः एव सा चिन्तयति तथा. अग्रे अपि तमेव विचारम् अग्रे कविः वर्णयति यत् कदाचित् तेन माया, कीदृशीं मायाम् उत्पादितवान् एषः इत्युक्ते, अपहृतवान्. कीदृशीम् इत्युक्ते सहजां कृपां, यत् सहजकृपा अस्ति श्रीरामस्य सर्वेषु वत्सलः, तादृशीं कृपामेव कदाचित् सः अपहृतवान् अस्ति. तेन कारणेन एव श्रीरामः मां न अन्विष्टवान्. नो चेत् आश्रितेषु यः वत्सलः अस्ति, यः स्निग्धः अस्ति, सः किम् एवं मां त्यक्त्वा एवं तूष्णीं तिष्ठेत् किम्? न खलु, निश्चयेन सः अन्विष्यत्येव. किन्तु कदाचित् एतस्य मायायाः प्रभावः एव इति आशङ्कते. तदेव अत्र पद्यभागं पठामः. न केवलं मां हृद् दुरात्मा, कृपां रामस्य निसर्गसिद्धाम्, इदं न चेत् संश्रुतवत्सलः किम्? भवेत् स तूष्णीं जगते, जगदे कवीरः, अत्र पदच्छेदः एवमस्ति, न केवलं माम् अहरत् दुरात्मा, कृपां च रामस्य निसर्गसिद्धां इदं न चेत् संश्रुतवत्सलः किं भवेत् सः तूष्णीं जगदेकवीरः। अत्र आकाङ्क्षापद्धत्या वयम् एतस्य अन्वयं कुर्मः। क्रियापदमस्ति अहरत्, हृतवान्, नीतवान् इति। कः अहरत्? कः दुरात्मा? रावणः। काम् अहरत्? कृपाम् अहरत्, कृपाम् अपहृतवान्, अपनीतवान्। कीदृशीं कृपां? धाम कृपां। कस्य? रामस्य निसर्गसिद्धां कृपां अहरत्। इदं न चेत्, एवं नास्ति चेत्, न केवलं माम् अहरत् अपि तु रामस्य कृपामपि अहरत्। प्रथमं माम् हृतवान्, माम् अहरत्, दुरात्मा, काम् च अहरत्, पुनः काम् अहरत्, कृपां च अहरत्। कस्य कृपां? श्रीरामस्य। कीदृशीं कृपां? निसर्गसिद्धां, सहजां कृपां। इदं न चेत्, एवं न भवति चेत्, निश्चयेन एवमेव अस्ति, अन्यथा किं भवेत् इति सीतादेव्याः आशंका भवेत्। कः भवेत्? संश्रितवत्सलः, आश्रितवत्सलः। कीदृशः सः संश्रितवत्सलः? सः श्रीरामः जगदेकवीरः, अतुल्यवीरः। सः कथं भवेत्? तूष्णीं भवेत् किं? न भवेत् खलु इति भावः। इदानीम् अन्वयं पश्यामः। दुरात्मा न केवलं माम् अहरत्, कृपां च अहरत्। इदं न चेत् संश्रुतवत्सलः जगदेकवीरः किं तूष्णीं भवेत् इति। प्रतिपदार्थं पश्यामः। दुरात्मा, रावणः, दुष्टः। वस्तुतः आत्मन् शब्दस्य बहवः अर्थाः भवन्ति। एकं तु आत्मा इति प्रसिद्धः अर्थः लोके, जीवात्मा, परमात्मा इति। अन्ये अपि सन्दर्भम् अनुसृत्य तस्य अर्थग्रहणं भवति। कदाचित् मनः, कदाचित् शरीरं, कदाचित् बुद्धिः। अत्र मनः, यस्य दुष्टं मनः, सः दुरात्मा इति। नो चेत् आत्मा, आत्मनः, आत्मा तु पवित्रः किल। अत्र दुरात्मा इत्युक्ते यस्य मनः दुष्टम्। न केवलं माम् अहरत्, सीतादेवी वदति मामेव न अहरत्, रामस्य निसर्गसिद्धां कृपां च अहरत्, श्रीरामस्य सहजां कृपाम् अहरत्। सहजकृपा अस्ति। अन्येषु कृपा कदाचिदेव भवति, जीवेषु वा अथवा महाराजे वा अथवा स्वामिनी वा अथवा लोके अन्येषु, कदाचित् देवेषु अपि। किन्तु ईश्वरे कृपा सहजा भवति, सर्वदा भवति, सहजाता कृपा भवति, तादृश अनपायिनी। कदापि सा कृपा तम् तस्य वियोगे न भवति, सर्वदा तेन भगवता सह भवति कृपा। अतः सहजा, सहजां कृपाम् अहरत्, सः हृतवान्। एवं न चेत्, एवं न भवति चेत् किं? संश्रितवत्सलः, आश्रितेषु स्निग्धः। ये आश्रितजनाः सन्ति तेषु प्रीतः। वत्सलः इति पदं पश्यामः चेत्, कथम् एतस्य व्युत्पत्तिं पश्यामः चेत्, गौः वत्सः भवति किल, वत्सः, वत्से कामः अस्य अस्ति इति वत्सलः। धेनोः विषये चेत् वत्से कामः अस्याः अस्ति इति वत्सला। अत्र श्रीरामस्य, भगवतः विषये, वत्से कामः अस्य अस्ति इति वत्सलः। यथा धेनुः वत्से प्रीतिं प्रकटयति तथा भगवान् आश्रितजने प्रीतिं प्रकटयति इति भावः। संश्रितवत्सलः, ये तमाश्रयन्ति तेषु सः प्रीतः, स्नेहपूर्वकं व्यवहरति, स्नेहपूर्वकं तस्य आचरति। जगदेकवीरः, जगति अतुल्यपराक्रमः श्रीरामः, किं तूष्णीं भवेत्? परदुःखहरणे यः तत्परः भवति सर्वदा, सः स्वस्य भार्यायाः एव एतादृशं कष्टं दृष्ट्वा अथवा ज्ञात्वा किं तूष्णीं भवेत्? सः न भवेत् खलु, निश्चयेन सः मम अन्वेषणम् अकरिष्यत्। एतद् कदाचित् मायया तस्य कृपा अपहृता रावणेन, अतः एव श्रीरामः उदासीनः अस्ति, मद्विषये अपेक्षाभावं प्रदर्शयन् अस्ति इति सीतादेव्याः आशंका। पुनरपि श्लोकम् एकवारं पठामः। न केवलं माम् अहरत् दुरात्मा, कृपां च रामस्य निसर्गसिद्धाम्, इदं न चेत् संश्रितवत्सलः किं भवेत् स तूष्णीं जगदेकवीरः। अत्र सहजकृपा इति पदमस्ति, पुनः तस्य हरणं न साध्यं किल, कृत्रिमं भवति चेदेव तस्य अपहरणं साध्यम्। किमपि मम हस्ते एकवस्तु अस्ति, तद् वस्तु केनचित् अपहर्तुं शक्यं, स्वर्णमस्ति, पुस्तकमस्ति अथवा धनमस्ति, किन्तु सहजं यद् जन्मना सिद्धं किमपि वस्तु, तस्य अपहरणं साध्यं वा? न साध्यं किल। तस्य यत् असम्भवे अपि सम्भवस्य कल्पना अस्ति इति कारणेन अत्र अतिशयोक्ति अलङ्कारः इति। रामस्य राज्यम् अपहर्तुं शक्यं, किन्तु तस्य कृपा अपहर्तुं शक्या वा? न शक्या किल। तथापि अत्र तादृशकल्पना कृता इति कारणेन अतिशयोक्तिः। अग्रे गद्यभागं पश्यामः। अहं पठामि अनुवादम्। इत्थं विलप्य रघुपुङ्गवम् एव सन्ततं चिन्तयन्ति, कृच्छ्रात् मूर्च्छाम् अगमत्, सीतादेवी एवं बहुविधप्रकारेण चिन्ताः कृत्वा, इत्थं विलप्य विलापं कृत्वा, दुःखमनुभूय रघुपुङ्गवम् एवं, रघुपुङ्गवमेव रघुषु श्रेष्ठः, रघुषु पुङ्गवः तं श्रीरामम् एव सन्ततं चिन्तयन्ति, निरन्तरं चिन्तयन्ति, तमेव स्मरन्ति। कृच्छ्रात्, कृच्छ्रम् इत्युक्ते क्लेशः, किमपि व्याधिः कोऽपि भवति चेत् एषः व्याधिः साधारणः न, कृच्छ्रसाध्यः इति कदाचित् वदन्ति आयुर्वेदे। इत्युक्ते क्लेशे बहु एतस्य निवारणं कठिनमेव, किन्तु निवारणम् अस्ति, क्योर् अस्ति, किन्तु तस्य क्योर् कठिनम् इति वदन्ति किल, तादृशं कृच्छ्रं क्लेशः कठिन, कृच्छ्रात् मनसः क्लेशात्, मूर्च्छाम् अगमत्, मूर्च्छादशां प्राप्तवती, अगमत् अगमत् अद्यतन लुङ्लकारः, मूर्छां प्रापत्, तस्य मूर्छादशा अभूत् इति भावः। अत्र वयम् अस्माकं मनसि एकं चिन्तनम् इदानीम् आगच्छेत्, सामान्यजनाः दुःखम् अनुभवन्ति, क्लेशम् अनुभवन्ति, सीतादेवी अपि किं दुःखम् अनुभवति? सा देवी किल, रामः अपि दुःखम् अनुभवति विरहतापे, तस्य अपि मनः भवति इति वयं शृणुमः पठामः. अत्र सीतादेव्याः चिन्तायाः विषयः अत्र मरणभयभीतिः नास्ति तस्याः, मरणभयम् इति नास्ति, किन्तु एतादृश अपमान स्थितिः अस्ति, एते राक्षसस्य पारतन्त्रे अहम् अस्मि, असज्जनाः ये सन्ति तेषां मध्ये अहं स्थिता इति एतादृशभयमेव अत्र अस्ति. मरणभीतिः तु कदापि नास्ति. अग्रे अपि तादृशमेकं वाक्यं वाल्मीकिरामायणे अपि वयं पठितुं शक्नुमः. राक्षसीनां वचनं श्रुत्वा सीतादेवी अश्रुपूर्णा अभवत् इति वयं वाल्मीकिरामायणे अपि पठामः. किन्तु तस्याः मनसि धैर्यमपि अस्ति, धैर्यपूर्वकं सा भयोत्पादनं कुर्वन्ति किल, ताः राक्षसीः अपि सा धैर्येण सम्मुखीकरोति. दीना भूत्वा तेषां पुरतः मां रक्षतु, मां त्यजन्तु, किमर्थम् एवं कुर्वन्ति इति न वदति, किन्तु अहं वियुक्ता किल मम भार्या, मम भर्तुः सकाशात् इति दुःखं पुनः अत्र प्राप्ता असङ्गते स्थाने, तत्सर्वं तस्याः मनसि दुःखं जनयति. अत्र श्रीमद्वाल्मीकिरामायणे सा वदति ताः राक्षसीः, दीनो वा राज्यहीनो वा यो मे भर्ता समे गुरुः, कामं खादत मां सर्वाः, न करिष्यामि वो वचः इति वदति. अत्र वयं जानीमः देवी दीना नास्ति, सा धैर्येण ताः वदति, भवन्तः मां खादन्तु, भवन्तः मां क्षिपन्तु, श्वः प्रातराशनाय पाकशालां नयन्तु, नाम मम तत्र अत्र सहमतिः नास्ति, भवन्तः यद् वदन्ति तदहं न करिष्यामि इति स्पष्टं वदति. अनन्तरं तस्याः मनस् एतदपि अस्माकं कृते अपि पाठः भवति, यदा दुःखं भवति तदा पश्चातापः करणीयः. दुःखं केवलं दुःखकरणेन तावत् प्रयोजनं न भवति, किन्तु पश्चातापकरणेन पापप्रक्षालनं भवति इति ज्येष्ठाः वदन्ति. अत्र स्वयं साक्षात् देवी, रामायणे वाक्यमस्ति, कीदृशं तु महत् पापं मया देहान्तरे कृतं, तेनेदं प्राप्यते घोरं महादुःखं सुदारुणम्. कीदृशं पापं मया आचरितं, येन अन्यस्मिन् जन्मनि येन कारणेन अहम् एतत् घोरं महादुःखम् इदानीं सम्मुखीकरोमि इति तस्याः चिन्तनम्. अग्रे पुनः कश्चन श्लोकः, तं श्लोकं पठामः. निशाचरीस्तां निरवध्य शीलाम् इति श्लोकः अस्ति, तं श्लोकं पठामः. निशाचरीस्तां निरवध्य शीलाम्,
निशाचरीस्तां निरवध्य शीलाम्,
निर्भर्त्सयन्तीः निभृतं निवार्य, स्वप्नलोकोत्सवमात्मदृष्टम्, अस्वप्नलोकोत्सवमात्मदृष्टम्, दुःस्वप्नमेकं त्रिजटा जगाद, तस्मिन् समये यदा सीतादेवी वहति शोके निमग्ना, तस्मिन् समये औषधलेपन इव त्रिजटायाः तत्र स्वप्नकथनं भवति. सा अत्र कविः वदति दुःस्वप्नं वदति. दुःस्वप्नं कथं सन्तोषप्रदायकं भवति इत्युक्ते देवानां कृते उत्सवसदृशं, किन्तु राक्षसानां कृते दुःस्वप्नः इति तद् अत्र वर्णयति. इदानीं पदच्छेदं पश्यामः. निशाचरीः तां निरवध्य शीलां निर्भर्त्सयन्तीः निभृतं निवार्य अस्वप्नलोकोत्सवम् आत्मदृष्टं दुःस्वप्नम् एकं त्रिजटा जगाद. जगाद क्रियापदं, गदति इति क्रियापदात् पदस्य लिट् लकारः. जगाद वदति, उक्तवती. का जगाद? त्रिजटा. त्रिजटा विभीषणसुता, वयं जानीमः. त्रिजटा किं जगाद? दुःस्वप्नं जगाद. कीदृशं दुःस्वप्नम्? एकं दुःस्वप्नम्. पुनः कीदृशं दुःस्वप्नम्? आत्मदृष्टम्, तया दृष्टम्. पुनः कीदृशं दुःस्वप्नम्? अस्वप्नलोकोत्सवं दुःस्वप्नम्. अस्वप्नाः के? देवाः. तेषां निद्रा एव न भवति, अतः अस्वप्नाः. देवानां कृते, देवलोकस्य कृते एषः उत्सवस्य वार्ता, सन्तोषस्य वार्ता. अतः अस्वप्नलोकोत्सवः दुःस्वप्न स्वप्नः. किं कृत्वा जगाद? निवार्य. काः निवार्य? निशाचरीः, तत्रत्याः राक्षस्यः आसन्. ताः राक्षसीः निवार्य कीदृशीः निशाचरीः? निर्भर्त्सयन्तीः. ताः रावणस्य आज्ञया ताः सर्वाः सीतां निन्दन्ति स्म, तर्जयन्ति स्म, भर्त्सयन्ति स्म. तादृशीः राक्षसीः निर्भर्त्सयन्तीः, तर्जयन्तीः राक्षसीः निवार्य ताः कां निर्भर्त्सयन्तीः? तां सीतां, सीतादेवीं. कीदृशीं तां निर्भर्त्सयन्तीं? निरवध्यशीलां. निरवध्यशीला इत्युक्ते निन्दितुं न योग्या सा, अनिन्दनीया इति अर्थः. पदस्य विवरणम् अग्रे पश्यामः. कथं सा निवारितवती? निभृतं, रहसि. उच्चैः वदति चेत् रावण अन्य ये रक्षकाः शृण्वन्ति चेत् क्लेशः भवति किल, अतः निभृतं, रहसि निवार्य उक्तवती त्रिजटा. अन्वयः भवति, त्रिजटा निरवध्यशीलां तां निर्भर्त्सयन्तीः निशाचरीः निभृतं निवार्य अस्वप्नलोकोत्सवम् आत्मदृष्टम् एकं दुःस्वप्नं जगाद. प्रतिपदार्थः त्रिजटा विभीषणसुता निरवध्यशीलां तां. वयम् एतत् पदं श्रुतवन्तः स्याम. वचनीय, एकं तु वक्तुं योग्यम् इति भवति, अन्यद् वचनीय इत्युक्ते निन्दनीय इति अपि पदं पदस्य अर्थः भवति. वक्तुं योग्यः. निरवध्य इत्युक्ते निन्दितुं न योग्या, निरवध्यशीला सा. निन्दितुं न योग्या, सर्वथा अनिन्दनीया सा, निरवध्यशीला अस्ति सा. तां निरवध्यशीलां निर्भर्त्सयन्तीः निशाचरीः, तर्जयन्तीः राक्षसीः. द्वितीया बहुवचनं, निशायां चरन्ति इति निशाचरीः, निशाचर्यः ताः निशाचरीः. निभृतं रहसि, एकम् उच्चैः सा वदति भवेत्, अन्ये बहिः स्थिताः आरक्षकाः श्रुयुः, तेन रावणकर्णे विषयः पतति चेत् अपायः भवति. अतः निभृतं निवार्य, रहसि निवार्य अस्वप्नलोकोत्सवम् आत्मदृष्टम् एकं दुःस्वप्नम्. देवलोकस्य कृते यः या वार्ता उत्सवायते तादृश अस्वप्नलोकोत्सवं दुःस्वप्नं, पुनः आत्मदृष्टं, तया दृष्टं, स्वेन दृष्टम् एकं दुःस्वप्नम्. जगाद उक्तवती। अत्र अत्र कविः दुःस्वप्नस्य विषये न वदति, केवलं दुःस्वप्नम् इति एकं पदं वदति। वयं वाल्मीकिरामायणं स्वीकृत्य पठामः चेत् बहु विस्तरेण सा स्वेन दृष्टं स्वप्नं सा वर्णयति, कथयति किं किं तत्र भवति इति। स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता, चन्द्रसूर्यौ मया दृष्टा दृष्टौ दृष्टा पाणिभ्यां परिमार्जति इति त्रिजटा वदति। सीतादेवी कस्मिंश्चित् विमाने अस्ति, तत्र सा यदा रामेण श्रीरामेण सह उड्डयते विमानेन, तत्र साक्षात् चन्द्रसूर्यौ स्पृशति इति पाणिभ्यां। चन्द्रसूर्ययोः स्पर्शनं किं सूचयति स्वप्ने इत्युक्ते राज्यलाभं सूचयति इति वदन्ति शास्त्रे। अतः शुभसूचकं किल, अतः एव अस्वप्नलोकोत्सव स्वप्नः इति तया कविना उक्तम्। पुनः किं करोति, पाण्डुरार्षभयुक्तेन रथेनाष्टयुजा स्वयम् इहोपयातः काकुत्स्थः सीतया सह भार्यया। पाण्डु श्वेतऋषभयुक्तरथेन, कति अष्ट ऋषभाः सन्ति, तादृश रथेन कुतः श्रीरामः उपयातः इतः स्थितः। अनन्तरं सा आरुव्यं विमानं कुर्यन्निभम् उत्तरां लोच्य प्रस्थितः पुरुषोत्तम। उत्तरां दिशम् उत्तरदिशि गमनमपि शुभसूचकं, तस्य सर्वं विपरीतं रावणस्य विषये दुःस्वप्नं कथम् इति। तत्र अत्र सीतादेव्याः वस्त्रं पाण्डुरवस्त्रं भवति, रावणस्य वस्त्रं रक्तवस्त्रं भवति। सीतादेवी उत्तरां दिशं प्रति गच्छति, एषः दक्षिणां दिशं प्रति पतति, एवं सर्वं विपरीतं भवति। त्रिजटायाः स्वप्न दुःस्वप्नं कथं स्वप्नः कथं भवति इति तत्र। रावणश्च मया दृष्टो मुण्डतैलसम्मुक्षितः, तस्य शिरसि तैलम् अस्ति। पुष्पकात् अद्य रावणः पतितौ क्षितौ, पतितः सः क्षितौ भूमौ पतितः, रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः। रक्तवस्त्रधरः सः मत्तः उन्मत्तः इव करवीरकृतस्रजः, करवीरपुष्पैः निर्मितमालां धृतवान् अस्ति। तेन किम् इत्युक्ते करवीरपुष्पं भवति तद् तत्र वदन्ति, तद् विषयुक्तं भवति सर्वम्, अतः तद् शुभसूचकं स्यात्। अनन्तरम् अवाक्षिराः सः पतितवान् भूमौ, गर्दभात् पतितवान् इत्यादिकं तत्र विस्तरेण अस्ति। वाल्मीकिरामायणं वयं पठित्वा सविस्तरं ज्ञातुं शक्नुमः। एकवारं श्लोकं पठामः। निशाचरीस्तां निरवध्य शीलाम् निर्भर्त्सयन्ती निभृतं निवार्य अस्वप्नलोकोत्सवमात्मदृष्टं दुःस्वप्नमेकं त्रिजटा जगाद। सीतादेव्याः दुःस्थितिः कथम् अभवत् इति, तस्याः सीतादेव्याः दुःस्थितौ त्रिजटायाः आगमनं तस्याः शुभवार्ता श्रावणं, तद् कथम् अस्ति इत्युक्ते, कस्यचित् क्षतव्रणपीडितस्य जनस्य कृते औषधलेपनम् इव अभवत् इति कवेः अत्र वर्णनम्। अत्र रूपकम् अस्ति सीता लता, काचित् लता भवति, सा लता सर्वदा आश्रयम् अन्विष्यति. किमर्थम्? रोहणं वर्धनं प्राप्तुम्. किन्तु आश्रये अप्राप्ते किं भवति? तद् भूमौ पतति किल सा लता. तथैव समीपे एव वृक्षम् अप्राप्य, कमपि आश्रयम् अप्राप्य सीता लता भूमौ पतिता. वयं पूर्वमेव दृष्टवन्तः, लुठन्ती आसीत् सीतादेवी इति. सा भूमौ पतित्वा लुठन्ती आसीत् शोकेन. तर्हि सा सीता लता इदानीं भूमौ पतिता. केन? सा दष्टा अभवत्, तस्याः दंशनं कृतवन्तः. के? राक्षस्यः तर्जनेन तस्याः दुःखं कारितवन्तः किल. तादृशम् अत्र लता अस्ति, सा केनचित् कीटेन दष्टा, अतः भूमौ पतिता इति विवरणमस्ति. वयं विस्तरेण अर्थं द्रक्ष्यामः. उपघ्नवृक्षस्य परोक्षभावात्, एत्य पृथ्वीं सुचिरं लुठन्त्याः. दत्तं च रस्त्रीमुखकर्षितायाः, सीता लताया स्त्रिजटा जटा भूत्. एकक्षणं वा किञ्चित् निरीक्षां कुर्वन्तु. पदच्छेदः उपघ्नवृक्षस्य परोक्षभावात्. उपेत्य पृथ्वीं सुचिरं लुठन्त्याः, नत्तं चर स्त्रीमुखकर्षितायाः, सीतालतायाः त्रिजटा जटा अभूत्. अत्र
साउंड नास्ति.
अभूत् क्रियापदम्. का अभूत्? त्रिजटा. त्रिजटा कीदृशी अभूत्? जटा. जटा इत्युक्ते ओषधिः. ओषधिः कस्याः? सीतालतायाः. सीता एव लता. कीदृश्याः सीतालतायाः? लुठन्त्याः, भूमौ पतित्वा लुठन्त्याः. एवं भूमौ पतिता सा तदा. किं कृत्वा लुठन्त्याः? उपेत्य, प्राप्य. कस्मात् कारणात् उपेत्य? समीपस्थ आश्रयवृक्षस्य असान्निध्यात्, उपघ्नवृक्षस्य परोक्षभावात् इति अस्ति किल. उपघ्न इत्युक्ते समीप, समीपतर आश्रयस्य परोक्ष. परोक्ष इत्युक्ते अक्ष्णोः पुरतः नास्ति, अक्ष्णोः समक्षं नास्ति, दूरे अस्ति. अतः समीपतरवृक्षस्य अलाभात्. कुत्र उपेत्य? पृथ्वीं. कियत्कालं यावत् लुठन्त्याः? सुचिरं, दीर्घकालं यावत्. पुनः कीदृश्याः सीतालतायाः नक्तञ्चर स्त्री मुखकर्षितायाः नक्तञ्चराः के राक्षसाः न केवलं राक्षसाः ये ये नक्तं रात्रौ चरन्ति सर्वे अपि राक्षसाः तर्हि चन्द्रः तारकाः राक्षसाः किन्नराः कीटाः ये पक्षिणः रात्रौ चरन्ति सर्वे अपि नक्तञ्चराः भवन्ति अत्र सीतायाः पक्षे राक्षसी मुखेन तर्जितायाः लतापक्षे पश्यामः चेत् केनचित् कीटविशेषेण सा दष्टा सा लता दष्टा अभवत् इति वयम् अर्थं ज्ञातुं शक्नुमः अन्वयः भवति उपघ्नवृक्षस्य परोक्षभावात् पृथ्वीम् उपेत्य सुचिरं युठन्त्याः नक्तञ्चरस्त्रीमुखकर्षितायाः सीतालतायाः त्रिजटा जटा अभूत् उपघ्नवृक्षस्य समीपतरं स्थितं समीपतरस्थितवृक्षस्य अभावात् परोक्षभावात् दूरे अस्ति वृक्षः आश्रयितुं तावत् निकटं नास्ति अतः परोक्षभावात् दूरस्थं वृक्षः दूरस्थः समीपे नास्ति लतायाः कृते आरोढुम् अतः वृक्षस्य अभावः आश्रय अभावात् इति अर्थः पृथिवीम् उपेत्य भुवं प्राप्य लता यदा आश्रयं न प्राप्नोति पृथिव्यां पतति तथैव सीता रामरूप वृक्षस्य अभावात् सीतालता भूमौ पतिता पृथिवीम् उपेत्य सुचिरं लुठन्त्याः दीर्घकालं यावत् लुठन्ती आसीत् सा तादृश्याः लुठन्त्याः पुनरपि न केवलं भूमौ पतनं सीतायाः अशोकवनिका प्राप्तिः एव तस्याः दुःखजनकं राक्षसस्य आश्रये अस्ति इति शोकस्य विषयः रावणेन तर्जिता इति शोकस्य विषयः पुनः तदेव न राक्षस्यः अपि तां तर्जयन्ति इति पुनः शोकस्य विषयः किल तादृशं लता भूमौ पतिता पुनः कीटेन दष्टा चेत् लतायाः का गतिः भवेत् सा एव गतिः अत्र सीतादेव्याः अतः नक्तञ्चन स्त्री मुखकर्षितायाः सीतालतायाः त्रिजटा जटा अभूत् ओषधी इव तस्याः तत्र उपस्थितिः अभवत् तस्याः स्वप्नकथनमपि अभवत् इति तत्र श्रीमद्वाल्मीकिरामायणे एतस्य सीतादेव्याः भूमौ पतनं लुठनं च तत्र कथं वर्णयति कविः इति पश्यन्तु तस्याः सा दीर्घबहुला वेपन्त्यासीतायाः तदा तदृशे कम्पिता वेणी व्यालीव परिसर्पती तस्याः सीतादेव्याः दीर्घा कृष्णा वेणी व्याली इव सर्पः इव तत्र भूमौ सर्पति परिसर्पति तथा दृष्टा सा वेणी कम्पते स्म सर्पः इव तत्र भूमौ तत् सा वेणी कम्पते इति वर्णनं तत्र दृश्यते सकृत् श्लोकं पठामः उपघ्नवृक्षस्य इति एतं श्लोकं पठामः उपघ्नवृक्षस्य परोक्षभावात् उपेत्य पृथ्वीं सुचिरं लुठन्त्याः नक्तञ्चरस्त्रीमुखकर्षितायाः सीतालतायास्त्रिजटा जटाभूत् पुनः एकवारं पठामः उपघ्नवृक्षस्य परोक्षभावात् उपेत्य पृथ्वीं सुचिरं लुठन्त्याः नक्तञ्चरस्त्रीमुखकर्षितायाः सीता लताया स्त्रिजटा जटा भूत। इदानीं मारुतिः आञ्जनेयः यः शिंशपावृक्षारूढः सः चिन्तयति इतः परं मया समयस्य नाशः न करणीयः, शीघ्रमेव अवतीर्य तत्र देव्याः पुरतः गच्छेयम् इति सः चिन्तयति। गद्यभागः अस्ति, पठामः। तदनन्तरम् आत्मत्यागाय स्पृहयन्त्यां मैथिल्याम्
आत्मत्यागाय
स्पृहयन्त्यां मैथिल्याम्
मैथिल्यां
मारुतिः इयम् अनुपेक्षणीया तपस्विनी नीतिम् अमुञ्चति इति। चिन्तां परिगृह्य देवीयान् अस्याः बभूव तदनन्तरम् एवं सीतादेवी भूमौ पतित्वा यदा लुठन्ती आसीत् तस्याः दुःखम् असहमानः मारुतिः आत्मत्यागाय स्पृहयन्त्यां मैथिल्याम् अहं मम प्राणत्यागं करोमि इति चिन्तितवती सीतादेवी। तस्मिन् क्षणे आत्मत्यागाय स्पृहयन्ती आसीत् मैथिली। स्पृहयन्ती इत्युक्ते काङ्क्षन्ती, तथा आत्मत्यागं कुर्याम् इति चिन्तयन्ती आसीत्, इच्छन्तीं मैथिलीं। मैथिल्यां चिन्ताम् अकरोत्, चिन्तां परिगृह्य, चिन्तां परिगृहीतवान् मारुतिः, चिन्तां कृत्वा। इयं नीतिम् अमुञ्चति तपस्विनी अनुपेक्षणीया, इतः परं क्षणकालं यावदपि अहं समयं व्यर्थं करोमि चेत् महत् किमपि विपत् सञ्जायेत इति विचिन्त्य एषा पतिव्रता अस्ति, नीतिम् अमुञ्चति, न्यायमार्गे न्यायमार्गमेव अनुसरति किल एषा पतिव्रता। नीतिम् अमुञ्चति तपस्विनी एषा अनुपेक्षणीया, एतस्याः उपेक्षा न कार्या इति। अस्याः देव्याः नेदीयान् बभूव, समीपे आगतवान्। नेदीयस्य शब्दः समीपतरं स्थितः इति अर्थः। इयस् इयस् इष्ठन् प्रत्ययः, इयसुन् प्रत्ययः इति पश्यामः, पठामः। तरप्तमप् इव तरप्तमप्रत्ययौ अकारान्तप्रत्ययः, समीपतरः, समीपतमः, महत्तरः इति। किन्तु इयसुन् इष्ठन् प्रत्ययः सकारान्तः। नेदीयस्य शब्दः नेदीयान् इति पुल्लिङ्गे, कारणं मारुतिः इति अत्र पुल्लिङ्गशब्दस्य विशेषणं, मारुतिः नेदीयान् बभूव। यदि स्त्रीलिङ्गं भवति नेदीयसी बभूव, नपुंसकलिङ्गं चेत् नेदीयः। गीतायाम् एतादृशप्रयोगः, जायसि चेत् कर्मणश्चेत् मता बुद्धिर्जनार्दन। कर्मणः बुद्धिः ज्यायसी, तत्रापि एतादृश इयसुन् प्रत्ययस्य प्रयोगः। अन्यत्र कर्म ज्यायः, तत्र नपुंसकलिङ्गम्, अतः कर्म कर्मपदस्य विशेषणं भवति ज्यायः। पुल्लिङ्गं भवति चेत् ज्यायान् इति भवति। सीतादेवी श्रीमद्वाल्मीकिरामायणे कथं चिन्तयति, अहम् आत्मत्यागं कुर्याम् इति। सर्वथा तेन हीनाया रामेण विदितात्मना तीक्ष्णं विषमिवासाद्य दुर्लभं मम जीवनं रामं त्यक्त्वा मम जीवनं कथमस्ति इत्युक्ते विष केनचित् जीवेन विषं प्राप्तम् इति तादृशम् अभवत् मम जीवनं. तीक्ष्णं विषम् इव आसाद्य, तीक्ष्णं विषं प्राप्य कस्यचित् जीवनं कथं स्यात्, तादृशम् इदानीं तादृशी स्थितिः मम इति सीतादेवी चिन्तयति. अहं चिन्तयामि अत्र अग्रिमश्लोकः किञ्चित् दीर्घतरः, तत्र विवरणमपि अपेक्षितमस्ति, अतः वयमत्र विरमामः. वाल्मीकिरामायणमपि युगपत् पठामः. अग्रिमगुरुवासरे मिलामः. शान्तिमन्त्रम् उक्त्वा समापयामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाक् भवेत्. शान्ति शान्ति शान्तिः. नमस्कारः, शुभरात्रिः अथवा सुप्रभातमपि. सतीश महोदयस्य अनन्तरं प्रिया भगिन्या.